वाजेभिर्वाचनीवति जीनाम वित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ओम् भद्रं कर्णे शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः शिरैरङ्गैः सुस्तु वागुंसस्तनोभिः यशेम देवहितं यदायुः स्वस्ति न इन्द्रो रुद्रश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो हरिष्टनेभिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षात् आत्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अवद्वमाम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवो दक्षिणातात् अवचोद्वारात् अवाधरातात् सर्वतो मां पाहि पाहि समन्तात् त्वं वां मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दा द्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं त्वत्तो जायते सर्वं जगदिदं त्वत्तस्तिष्ठति सर्वं जगदिदं त्वैलयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो नीलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रया मूलाधारस्थितोऽसि नित्यम् त्वां शत्रित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मा स्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वम् चन्द्रमा स्वं ब्रह्म भूर्भुवसुवरो गणादीं पूर्वमुच्छाय वर्णादीं सदनन्तरम् अनुस्वार परतरः अर्धेन्दुलसितं तारेण रुद्रम् एतत्तव मनुस्वरूपम् गकार पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारस्यान्त्यरूपम् हिन्दुरुत्तररूपम् नादसन्धानम् सगुम्मिता सन्धिः सैषा गणेश वेद्या गणक ऋषिः निक्षुर्गायत्री छन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमं कुशधारिणम् रथं च वरदं हस्तै विप्राणं मूषकध्वजम् रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् भक्तानुकम्बिनं देवं जगत्कारणमच्युतम् आविर्भूतं चतुष्याद्यौ प्रकृते पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदर एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ शान्ति 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 यश्चन्द्रसां वृषभो विश्वरूपः छन्दोऽभ्यो रमृतात् सम्बभूव समेन्द्रो अमृतस्य देवदारणो भूयासम् शरीरं मे विचक्षणम् जिह्वा मे मधुमत्तमाम् कर्णाभ्याम् भूरिविष्णुवम् ब्रह्मणः कोशोऽसि मे दया पीतः श्रुतं मे गोपाया मेधां देवी जुषमानान आगात् विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ता बृहत्वतेम विदते सुवीराः त्वया जुष्टर्षिर्भवति देवि त्वया ब्रह्मा गतश्रीरुतत्वया त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्वद्रविणो न मेदे मेधाम् इन्द्रो ददातु मेधां देवी सरस्वती मेधा मे अश्विना उभावा दत्ताम् पुष्करस्रजाम् अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सामान् मेधा सुरभिर्जुषता गुस्वाहा आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्याम् ऊर्जस्वती पयसा पिन्वमाना सामान् मेधा सुप्रतीका जुषन्ताम् मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो ददातु मयि मेधाम् वेदाम् मयि प्रजाम् मयि सूर्यो प्राचोददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्य प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण मही महिषाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शा